इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य राजस्थानस्य बीकानेरस्थलं प्रति यास्यति। तत्रासौ 25,000 कोटि रूप्यकाणाम् अनेकासां विकासात्मक परियोजनानां शिलान्यासम् उद्घाटनं च करिष्यति, अथ च परियोजनाः राष्ट्राय समर्पयिष्यति। परियोजनासु रेल मार्ग विद्युज्जल नवीन नवीकरणीयोर्जा क्षेत्राणि सम्मिलितानि सन्ति। स्वयात्रावधौ प्रधानमन्त्री 18 राज्यानां केन्द्रशासित प्रदेशानाञ्च 80 जनपदेषु 3,100,000 संख्यकानां पुनर्विकसितामृत रेल स्थानकानामपि उद्घाटनं विधास्यति। एतेषु 19 स्थानकानि उत्तरप्रदेशस्य विविधेषु भागेषु स्थितानि विद्यन्ते, अपि च यात्रिणां यात्रानुभवान् सौख्यपूर्वकं विनिर्मातुम् आधुनिक सौविध्य प्रदानाय च पूर्णरूपेण सुसज्जितानि वर्तन्ते। अत्रान्तरे प्रधानमन्त्री अमृत भारत स्थानक योजनायाः अन्तर्गतं पुनर्विकसितस्य देशनोक अमृत रेल स्थानकस्यापि उद्घाटनं करिष्यति, अथ च बीकानेर मुम्बई एक्सप्रेस रेलयानाय हरितध्वजमपि प्रदर्शयिष्यति। प्रधानमन्त्री बीकानेर स्थलस्य पलना इत्यत्र एकं सार्वजनिक समारोहम् अपि सम्बोधयिष्यति। अत्रावधौ रेलमन्त्री अश्विनी वैष्णवः प्रावोचत् यत् अमृत भारत स्टेशन योजनायाः अन्तर्गतं पुनर्विकासाय अभिज्ञातेषु 13,000 रेलस्थानकेषु 3,100 अमृत रेलस्थानकानां प्रथमो भागो अयं भविष्यति। विदेश मंत्री डॉ एस जयशंकर कोपेनहेगन इत्यत्र डेनमार्क देशस्य उद्योग व्यापार वित्तीय विषयाणां मंत्रिणा मोर्टन बोडस्कोव इत्यमुना साकं मेलनं कृतवान्। उभौ पक्षौ सहयोगस्य प्रवर्तमान क्षेत्राणि इतोपि सुदृढीकर्तुं नवीनाः संभावनाः च अन्वेष्टुं पारस्परिक चर्चां साधितवन्तौ। विदेशमन्त्रिणा डेनमार्क देशस्य वक्त्रा सोरेन गाडे इत्यतेन सहापि मेलनं विहितवान्। उपराष्ट्रपतिः जगदीप धनखड़ गोवायाः मोरमुआगाओ स्थले प्रमुख परियोजनाः उद्घाटितवान्। तदनन्तरं आयोजिते एकस्मिन् कार्यक्रमे उपराष्ट्रपतिः उदीयमानस्य भू राजनीतिक समाह्वानस्य मध्ये सागरे नियमाधारित व्यवस्थायाः प्रवर्तनाय बलं प्रदत्तवान्। उपराष्ट्रपतिः भारतस्य वर्धमानायाः अर्थव्यवस्थायाः अभ्यर्थनानि पूरयितुं जलपोत निर्माण प्रक्रियां सबलतया कथितवान्। सिन्धूराभियाने भारतेन कूटनीतिक प्रयासान् पाकिस्तान प्रायोजित आतंकवादं च उपस्थापयितुं स्वस्य आक्रामक वैश्विकाभियानं समारब्धम्, यस्य अन्तर्गतं द्वे सर्वदलीय प्रतिनिधिमण्डले नवदेशानां यात्रायै प्रस्थिते। जेडीयू इति दलस्य सांसद संजय कुमार झा इत्येतस्य नेतृत्वे एकं बहुदलीयं शिष्टमण्डलं ह्यः 5 देशानां यात्रायै प्रस्थितम्। एतत् शिष्टमण्डलं इण्डोनेशिया मलेशिया दक्षिण कोरिया जापान सिंगापुर राष्ट्राणां यात्रां करिष्यति। तत्रैव अन्यं च सिन्दूराभियाने भारतस्य कूटनीतिक प्रकटीकरणार्थं शिवसेनायाः उपनेतुः श्रीकान्त शिन्दे इत्येतस्य नेतृत्वे प्रतिनिधिमण्डलमेकं संयुक्तारबामीरात लाइबेरिया कांगो लोकतान्त्रिक गणराज्य सियेरा लियोन इत्येतेषां 4 स्थलानां भ्रमणं करिष्यति। बहुदलीयं प्रतिनिधिमण्डलमेतम् आतंकवादं विरुध्य शून्यसहिष्णुतायाः भारतस्य सुदृढ सन्देशेन सह सर्वेष् रूपेष् अभिव्यक्तिषु च आतंकवादस्य सामुख्यं कर्तुं देशस्य राष्ट्रसम्मतं दृक्पातं च प्रस्तोष्यति। आईपीएल इत्येतस्यां 20-प्रतिविंशति क्रिकेट स्पर्धा मालिकायां ह्यः रात्रौ जाते द्वन्द्वे मुम्बई इण्डियंस दलेन डेल्ही कैपिटल्स दलं 59 धावनांकैः पराभूतम्। अनेन साकमेव डेल्ही कैपिटल्स दलस्य अस्य वर्षस्य आईपीएल यात्रा समाप्ता जाता। अद्य सूच्याम् अहमदाबाद नगरस्य नरेन्द्र मोदी क्रीडांगणे गुजरात टाइटन्स लखनऊ सुपर जायंट्स दलयोर्मध्ये स्पर्धा निर्धारिता अस्ति। स्क्वैश क्रीडायां भारतस्य आकांक्षा सालुंखे इत्येषा आयरलैंड देशस्य डब्लिंग राजधान्याम् ऐषमः आयरिश ओपन इत्येतस्याः प्रतिस्पर्धायाः प्रागुपान्त्यचक्रे समाविष्टा जाता। इति वार्ताः।